अथ श्रीविष्णोरष्टाविंशतिनाम स्तोत्रम्। अर्जुन उवाच, किं नु नाम सहस्राणि जपते च पुनः पुनः, यानि नामानि दिव्यानि तानि चाचक्ष्व केशव। श्रीभगवानुवाच, मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्, गोविंदं पुंडरीकाक्षं माधवं मधुसूदनं, पद्मनाभं सहस्राक्षं वनमालिं हलायुधं, गोवर्धनं हृषीकेशं वैकुंठं पुरुषोत्तमं, विश्वरूपं वासुदेवं रामं नारायणं हरिं, दामोदरं श्रीधरं च वेदांगं गरुडध्वजं, अनंतं कृष्णगोपालं जपतो नास्ति पातकं, गवां कोटिप्रदानस्य अश्वमेधशतस्य च, कन्यादानसहस्राणां फलं प्राप्नोति मानवः, अमायां वा पौर्णमास्यामेकादश्यां तथैव च, संध्याकाले स्मरन्नित्यं प्रातःकाले तथैव च, मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते। इति श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्।